सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः स्त्रीप्रत्ययप्रकरणे द्वादशः पाठः, फेब्रुवरी मासस्य द्वादशः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। Okay, there is a question by him before we start. So, ūdhaha klībam āpīnam nama napumsakam. ūdhashabdaha napumsakalingaha ityarthaha. āpīnam iti paryāyaha. It is a synonym of ūdhaha. It means the udder or the breast. So, klība, ūdha and āpīna are paryāyas of each other and linga. That is why Amarakosha is an āma linga anushāsana. It gives both the names, that is the synonyms, and their lingas. So, we'll start with Ashtadhyayi. Again, I'll read it out today. So, from next week probably we can teach it because I started slightly late. Continuing with the three prepared prakarana. Nityam samyan chandasoho kevala mamaka iti patita samyayam chandasicha nityam nip bhavati. Agre nuk prakaranam arabhitam antarvat pativator nuk iti akramam sutram. पदद्वयम् अस्ति अन्तर्वत् पतिवतोः नुक् इत्यर्थः स्त्रियाम् इत्यधिकारः एतयोः स्त्रियां नुक् स्यात् इति सूत्रार्थः टु वर्ड्स् अन्तर्वत् अण्ड् पतिवत् प्रातिपदिकस् फर् दीस् टु प्रातिपदिकस् इन् स्त्रीलिङ्ग देर् इस् नुक् सो एतयोः स्त्रियां नुक् इति व्याख्याने चित्तसामर्थ्यात् अयम् आगमः न तु प्रत्ययः इति भावः. सो वाट् इस् दिस् लुक् इस् इट् अनदर् स्त्री प्रत्यय इति प्रश्नः भवति. अयम् आगमः लुक् इति आगमः न तु प्रत्ययः इति भावः. चित्त्वात् अन्तावयवः आद्यन्तौ पतितौ इति परिभाषा. चित् आगमः अन्त्यस्य भवति. अन्तर्वत् इत्यस्ति पतिवत् इत्यस्ति. ततः लुकि कृते अन्तर्वत् न पतिवत् न इति भवति. सो लुक् आर् मकार लुक् इस् आल्वेस् मकार इट् इस् बीङ्ग् एडेड् टु द एण्ड् आफ् द प्रातिपदिका. सो यु हव् अन्तर्वत् न एण्ड् पतिवत् न अधुना भूमि. Now, because it is nakaranta, rinnebhyonu neep, rikarantebhyaha nantebhyascha kriyam neep syatthena neep pratyaha bhavati. So, this sutra, antarvat pratyatornuka, only gives nugagama and not any pratyaya. So, once we have the agama, there is neep pratyaya being added. So, it is antarvatna e, it becomes antarvatni, similarly pativat n e, एकम्स पतिवत्नी. गर्भिण्याम् जीवद्भर्तृकायाम् च प्रकृतिभागौ निपात्येते. दिस् इस् द प्रकृतिभाग, दट् इस् अन्तर्वत् अण्ड् पतिवत्. द टु प्रातिपदिकास् आर् बोत् निपातास्. सिद्धप्रत्ययस्य निर्देशः निपातनम्. सो दे आर् रेडिमेड् फार्म्स्. दट् इस् हौ डु यु डिरैव् अन्तर्वत् पतिवत् इति अग्रे एव दीयते. सो दे आर् निपातनास्. कस्मिन् अर्थे निपातनम् इति चेत् गर्भिण्याम् अन्तर्वत्नी इति रूपं सिद्धम्. Garbhini ityartha. So antarvatni means a pregnant woman. Pativatni, jivadhartrika. She whose husband is alive. So, I mean, the general sense you have, pativat is matuk. Patihe asti asti. It is not just a woman who has a husband. It is, but with a special emphasis that he should be living. Jivadhartrikayam, prakriti bhagu nipatyate. So, vyakhyanam pashyamishtyate, garbhinyam iti pratiye. Garbhinyam jivadhartrikayam sastriyam, antarvat pativat iti prakriti bhagu nuk saniyogena nipatyate. So, the nuk is also given by the sutra, and the nipatana is also by the same sutra. Vartika metate. So, the Vyakhyana says that the line which Dikshitar has put, Garbhinyam, Jivadhartrikayam, Prakritibhagau Nipatyate, it is actually the tracing of a Vartika. So, the meaning of those two words are given by a Vartika. Katarasmin kim nipatyate ityada aha. So now the question is, whenever we have nipatana, why do we have a nipatana as a question? As I said, nipatana is where there is a ready-made form being given. So why does Panini do that? Yes. Generally you have some steps for derivation of a word. Okay. So they are given by sutras. What happens is, in some cases, there is a word which is in use. Okay. But it cannot be derived by the usual rules. So there are some steps which are missing. I mean, it looks like a usual form, but there are some steps missing in derivation. So what Panini now has two choices. He either has to create a new rule specifying that, okay, some karya will happen for this particular word and so on, which in some cases is will take more effort because there might be two or three steps skipped. There are some unusual forms or very special forms. So the path that he takes is he directly gives the word. Yes, this word is correct. He uses them in the sutra and gives some karya, or he just says gives these words as a nipatana. So what happens in this case is we do the prakriya as usual for other words of such type. Wherever there is a gap, that is, there is some special karya which is not given by any sutra, we say nipatana. For example, in this case, he will tell what is the nipatana here. So, katarasya, katarasmin kim nipatyata ityataha. So, what is the nipatana here? Iti prashne, tatreti. So, the next sentence answers that. Tatra, antaha asti asyam garbhaha iti vigrahe. Antashabdasya adhikarana shakti pradhanataya asti samanadhikaranya bhavad aprapto matuk nipatyate. So in the first word, that is antarvat ityatra, matuk nipatyate, the matuk pratyaya. Antarvat sounds like any other matuk pratyaya. You have gunavan, etc. Dhanavan, gunavan. You have matuk. Dhanavasyasti iti dhanavan. Gunahasyasti iti gunavan. So it is matuk. But the matuk itself is nipatana. That is, in the ordinary course of events, we would not have got matu. Even though the vigraha sounds correct, like say you have dhanaha asyam ala asya asminva asti iti dhanavan ityatra matup asti. Kinto antaha asti asyam ityatra matup na bhavati. Kimartham na bhavati iti diyate atra. So, tatreti payor madhye ityatraha. Antaha asti asyam garbhaha iti vigrahe apraptaha matup nipatyate ityanvayaha. So what is the sentence mean? He says in that vigraha, giving the word antarvat, apraptaha matup nipatyate. Matup will be obtained by nipatana. Katham apraptihi matupaha. Why do we not get matup by the usual sutra? There is the sutra for matup. So why can we not apply it? The prashne. Antashabdasya adhikarana shakti prabhanataya asti samana adhikaranya bhavat iti karanam. Tadasya iti asmin iti matup iti sutram. So the sutra which gives matup is tat asya Asmin ma asti. So there is something given by tat, one particle, which is there related to this. That is asya asmin va. So in that or of it. Iti ubhayatra bhavati ityukte saptami arthe api shashti arthe api vatu bhavati. So tat asya asmin va asti. So that is how matu comes. Say dhanam, tat is dhanam, asya asyam va, asmin va asti. Iti dhanavan. So buddhihi. Buddhihi asya asmin va asti. Iti buddhiman. And so on. Now here, so what is given by tat is that which is present. Okay. Now here, what is the vigraha? Antaha asya asyam garbhaha. That which is actually present is garbha. So the actual vigraha should be garbhaha asyam asti iti garbhavati ityatra matup bhavati. Garbhaha asyam asti. But the word here is antaha asyam asti. There is a garbha within her. Antaha is adhikarana shakti pradhana. Matup is got wherever there is kartri shakti. That is, what is there? That is the question which gets matup. Say, there is dhana, then it will be dhanavan. There is buddhi, there is buddhiman. There is garbha, so it should be garbhavati. But here, the word which is used in the Pratipadika is antaha and not garbha. The thing which is there, that is garbha itself is not there in the word. Antaha is inside. Iti adhikarana shakti pradhanasya matup apekshate tat na prapnoti ityarthah. So look at the vyakhyana. Tadasya asmin asti iti tadasya asmin iti matup iti sutrena asti samanadhikaranat kartrukarak pradhana prathamantat matup pratyayah vihitah. So matup pratyaya will always be for a prathamanta, a word which is prathamanta in the vigraha, kartrukarak pradhana and which has kartrushakti pradhana. Dhanam asti, gauhu asti, buddhihi asti. So it is asti samanadhikarana. A karta which is samanadhikarana with asti, that which is present. Asti samanadhikaranat kartrikaraka pradhana prathamantat matupratyaha vihitaha. Yatha gauhu asti asti iti goman. Gauhu asti, he has gauja, the gau is present. Gauhu asti asti iti goman ityado. Prakrute tu prathamantaha kartrikaraka pradhanaha garbha-shabdaha eva asti samanadhikaranaha. So in the present case, when you are taking a vigraha like antaha asti asyam garbhaha, it is the word garbha which is kartrishakti pradhana and which is samanadhikarana with asti. Garbhaha asti. So that will give a separate word as garbhavati. Tatra akshepaha nasti. There is a word garbhavati that is different. Kintu antaha asti asyam ityatra matuk na bhavati ityeva arthaha. Prakrite tu prathamantaha kartrikaraka pradhanaha garbha shabdaha eva asti samanadhikaranaha natu antashabdaha tasya nama antashabdasya adhikaranakaraka pradhanataya. Antaha is inside. So it, by nature, it is adhikarana shakti, locative. Tasya. There are some words where there is the addition of a vibhakti to indicate location, right? Say, for example, you have Rama, you have to say Rame to indicate location. Or Griham, you have to say Grihe to indicate that adhikarana shakti. But there are some words, avyayas, which are by nature adhikarana shakti pradhana. Okay. So like antaha is inside, is something which is inside. Tatraiva adhikaranasya arthaha pradhanataya drishyate. Ataha adhikarana shakti pradhanam iti uchyate. So, tatya adhikaranakaraka pradhanataya asti samana adhikaranya asambhava. Ataha atra apraptaha matup nipatyade ityarthaha. So matup will not occur by usual root. So by this sutra, there is nipatana of matu. Apraptaha matu nipatyate. Tatashta. After that, you have to complete the prakriya to get the pratipadika. You have antaha and now you have added matu. So it is antaha and matu. Matu prateya matu iti shishyate. Tatashta. मादुपधायाश्च मतोर्वो संयोगपूर्वस्य इति मकारस्य वत्रे द मकार इज कन्वर्टेड टू वकार द सूत्र मादुपधायाश्च वेयर देयर इज मकार एट द एंड और अदुपध इट इज अकार एट द उपध ओके सो दिस इज द अंतर और अंतस्थ सो यू हैव अकार इन उपध इट इज अंतर रेफांत अव्यय सो देयर इज अकार इन द उपध अंतर एंड मत तो अकारस्य उपधायाम अकारः अस्ति इति कारणेन अदुपधत्वात् मकारस्य वक्त्वे मकार इज कन्वर्टेड टू वकार सो यह अंतर्वत् अंतर्वत् इति प्रकृति भागः संपद्यत इति भावः सो यह द प्रकृति भाग द प्रकृति और द प्रातिपदिका इज रेडी एज अंतर्वत् एंड देन यू ऐड लुक बाय द सूत्र एंड नीप बाय द नेम सो नीप So we have antarvatni. Pativatni ityatra tu vatvam nipatyate. On the other hand, in the word, the second word, pativat, he says vatvam nipatyate. Vatvam iti pratike. Patihi asyaha asti iti vigrahe. Now the vigraha is patihi asyaha asti. Tadasya asti asmin iti matupaha. So matup is got by that sutra. पतिः अस्य अस्ति जस्ट लाइक धनम अस्य अस्ति शुड बी धनवान पतिः अस्य अस्ति सो बाय द यूजुअल सूत्र यू गेट मतुक देयर इज नो प्रॉब्लम विद गेटिंग मतुक हियर सो पतिः अस्य अस्ति सो यू हैव पति एंड मत बट द प्रॉब्लम इज गेटिंग इन गेटिंग वकारादेश देयर इज मकार एंड यू विल नॉट गेट वकारादेश व्हेन इट इज अ निकारांत सो यू हैव बुद्धिमान नीतिमान एंड सो ऑन So if there is ikara, there is no possibility of converting the makara to vakara. Because it says ma adupadha. It should be makara or adupadha. Akara in the upadha. There is neither in this case. So there will not be vakara adesha. Therefore, we get vakara by nipatana. Patihi asyaha asti iti vigrahe. Tadasyastyasmin iti matupaha makarasya. Madupadhat paratvam havena. मादुपधायाः इति वक्त्वम् अप्राप्तं निपात्यते इत्यर्थः सो द वक्त्व इज निपातन इन केस ऑफ पतिवत् अंतर्वत्नी पतिवत्नी इति सूत्रस्य उदाहरणम् उदाहरणं फॉर द एप्लीकेशन यू हैव लुक एंड देन यू हैव नीप सो यू हैव टू वर्ड्स अंतर्वत्नी इत्यस्य गर्भिणी इत्यर्थः पतिवत्नी इत्यस्य जीवद्भर्तृका इत्यर्थः प्रत्युदाहरणम् तु प्रत्युदाहरणम् किम् ही सेड गर्भिण्याम् जीवद्भर्तृकायाम् च निपात्यते सो द निपातन इज इन अ स्पेसिफिक सेंस व्हेन द वर्ड अंतः स्याम अस्ति मीन्स अ गर्भिणी सो देन ओनली देयर इज निपातन ऑफ मतु सो इफ इट इज यूज इन सम अदर सेंस दैट देयर इज समथिंग इनसाइड समथिंग एल्स अंतः अस्य अस्याम शालायाम घटः Asyam shalamyam antaha. So in this school, inside there is a pot. Now here also you have antaha asti asyam. So asyam iti vishesha vishyam darshaitum shalayam iti asti. Kim asti iti ghataha asti. Kintu atra antaha asti asyam iti matuk na prapnoti. There is no matuk here. Pratyudaharanam tu iti. So he says, गर्भिण्याम् एव मतुक् निपातनात् अन्तः अस्यां शालायां घटः इति विग्रहवाक्यमेव न तु मतुक् देर् इस् नो मतुक् हियर् एण्ड् देर् इस् नो वन् वर्ड् इट् हेस् टु बी अव्यस्तप्रयोग सिमिलर्ली इन् केस् आफ् पतिमती पृथिवी इति अस्ति पतिः अस्याः अस्ति इति पतिमती पृथिवी फार् द अर्थ् दट् इस् शी हेज् मेनी रूलर्स इत्यर्थे अयम् प्रयोगः पतिमती पृथिवी इति जीवद्भर्तृकायामेव वत्व निपातना इह भक्त्वाभावः सो एज़ यू सेड द निपातन दैट इज द वत्व इज आल्सो ओनली फॉर इन अ पर्टिक्युलर सेंस दैट इज जीवद्भर्तृका इत्यर्थे एव सो अस्मिन् अर्थे वत्वम् न भवति मतुप् तु भवति बिकॉज मतुप् इज बाय द यूजुअल सूत्र तदस्य अस्ति देर इज मतुप् बट देर इज नो वत्व ओके So, Please excuse me for a few minutes. I think my daughter is crying. I'll be back in 5 minutes. So that is Antarvat Pativata Urnuka. The next sutra is Patyurno Yajnasam Yoge. Patyuhu Naha Yajnasam Yoge. Okay? Trini Padani Samthi. Patishabdasya Nakaradeshah Syad Yajnana Sambandhe. It is Sutrartha. So the word Pati will get Nakara as the Adesha. Again, Antadesha, since it is Alantyasya, Aladesha, Srithinirdashtasya, Antyasya Labhavati. The Ikara of Pati will be replaced by Nakara. You have Patnu. Again, Nakarantatvat, Ranebhyongi Ityanena, Nipabhavati, Patni Itirupam, Siddhati. Vasishthasya Patni. Yajnasanyoge. इति कोर्थः इति तत्कर्तृकस्य यज्ञस्य फलभोक्त्री इत्यर्थः तो तत्कर्तृकस्य नाम पतिकर्तृकस्य वसिष्ठकर्तृकस्य यज्ञस्य फलं भुनक्ति फलस्य भोक्त्री इति अर्थः यज्ञसंयोगे यज्ञेन सम्बन्धः नाम स एव तेन यः यज्ञः क्रियते तस्य फलं पत्न्याः अपि भवति सो द वर्ड पत्नी शुड एक्चुअली मीन बाय दिस सूत्र शुड बी गिवन ओनली टू द धर्म पत्नी हू हैज The Yajnadhikara. So the next line again it says Dampatyoho Sahadhikara. So in Yajna, the couple, Dampati, will have Adhikara together. That is the phala of the Yajna, of any Yajna, will go to both Pati and Patni. That is why she is called Patni. Patyohonaha Yajna Sanyoga. Yajna Sanyoga Asti. It is Jyotayitumeva Patni. It is Prayoga. Dampatyoho Sahadhikara. Tatkartrakasya iti Vyakshane Vasishthakartrakasya iti Yattaha Nanu Vasishthakartraka yajnasya Vasishthaha eva phalabhokta iti usitam Natu tat tri api So if Vasishtha does the yajna So the phala will go to Vasishtha So Vasishthaha eva phalabhokta iti usitam Natu tat tri Not his wife Sarvakamaha Svargakamaha ityari Pulinga Shabdehi Pumsaha Eva Adhikara Vagamat. So wherever he says Jyotishtomena Svargakamo Yajeta. So Svargakamaha iti Pumsaha Eva Nirdeshahati Priyaha Katham Adhikaraha iti Prashna. How will she be Phalabhokti? Dampatyoho Sahadhikaradi Etacha Prakrita Sutre Bhashye Spashtam. So it is very clear from the Bhashya related to this sutra, that both the pati and pati will have adhikara to the yajna phala together. Ateva, so he gives again some proof from Mimamsa, because it is Mimamsa Shastra which is related to that, the karma kanda, and therefore he gives proof to say that there is dampatyohu sahadhikara siddhantitaha. So siddhanta is that the couple will have adhikara together, and it is due to this that she is called, the wife is called Patni. Agrimam Sutramasti Vibhasha Sapurvasya Padadvayam Patyurno Yajna Sanyoge Ityataha Patyuhu Naha Iti Anuvartate Patishabdantasya Sapurvasya Pratipadikasya Naha Vasya Pratipadika Patishabdanta which ends in the word pati, sapurvasya, and there is a purvapada, that it is a samasta pada, having a purvapada, sapurvasya patyuhu, ama patishabdaha purvapadam api asti, artha samase, patishabdaha ante asti, purvapadam kimapi vidyate, ityartha, tadrishasya pratipadikasya, naha vasyat, vikalpena nakaraha, antadeshaha bhavati, ityartha, yajnasanyoga bhaveti, So this sutra does not require yajnasanyoga. Yatra purvapadam vartate artha sapurvasya patyuhu yajnasanyoga bhaveti vikalpena nakaraha bhavati. Aprapta vibhasha. And therefore this is aprapta vibhasha. Vibhasha is always of two kinds or three kinds. Prapta vibhasha, aprapta vibhasha and ubhaya vibhasha. Where some karya was already given by a previous sutra and is being made optional here, It is prapta vibhasha. Say for example, there is sarvadini sarvanamani and there is vibhasha diksamase bahuvrihau. So the words sarva etc. already have compulsory sarvanama samya by sarvadini sarvanamani. But no, bahuvrihau diksamase. It is a diksamasa and bahuvrihi vikalpena bhavati. So that is prapta vibhasha. In this case, it is aprapta vibhasha, where it would not have gotten the karya by the previous sutra. Say, purva sutra na yagya sanyoge eva naha vidhiyate ityatah. Purva sutra na aprapte, anena sutra na vikalpyate, ataha aprapta vibhasha. Grahasya pati, stri ityatah, the master of the house, woman, तथे गृहपतिः इत्यपि भवति गृहपत्नी इत्यपि भवति उभयम् त्रिलिंगे तथा गृहपति हियर इन दिस केस इफ इट इज अ मैन ही इज गृहपतिः ओनली बट इफ इट इज अ वुमन इट कैन ईदर बी गृहपतिः और गृहपत्नी बोथ गृहपतिः आल्सो रेफर्स टू अ वुमन दैट इज वाई इट कैन बी राष्ट्रपतिः राष्ट्रपत्नी बोथ ऑफ देम आर करेक्ट राष्ट्रपतिः इज अ स्त्रीलिंग वर्ड इट विल रिमेन एज इट इज इन स्त्रीलिंग आल्सो गृहपतिः गृहपत्नी इति व्याख्याने नत्वपक्षे ऋणेभ्यः इति नीप सो देर् इस् नकारादेश एण्ड् देन् देर् इस् नीप् अत्र गृहपतिशब्दः पतिशब्दान्तः सो इट् एण्ड्स् इन् द वर्ड् पति गृहशब्दात्मक पूर्वावयवसहितः च सो इट् आल्सो हेस् अ पूर्वावयव प्रीवियस् पार्ट् आफ् पार्ट् प्रिसीडिङ्ग् पति विच् इस् गृह गृहशब्दात्मक पूर्वावयव सहितश्च इति भावः सो देयर इज वन मोर क्वेश्चन विद द व्याख्याकार इज रेजिंग हियर ही सेड प्रतिशब्दांत दैट इज द वर्ड विल अप्लाई टू पति एंड तदंत सो ग्रहणवता प्रातिपदिकेन तदंत ग्रहणं नास्ति इति निषेधः अस्ति सो व्हेन अ पर्टिकुलर प्रातिपदिका इज स्पेसिफाइड तदंतस्य ग्रहणं न भवति इति परिभाषा विद्यते ग्रहणवता प्रातिपदिकेन न च ग्रहणावता प्रातिपदिकेन इति निषेधः शङ्क्यः शूद्रा च महत्पूर्वा इति लिङ्गेन तस्य स्त्रियाम् इत्यधिकारे अप्रवृत्तेः उक्तत्वात् ऑलरेडि डिस्कस्ड हियर इन् शूद्रा च महत्पूर्वा जातिः सो द तदन्त निषेध डज नाट् अप्लै इन् स्त्री प्रत्यय सो द नेक्स्ट थिङ्ग् ही मूव्स् ऑन् टु द नेक्स्ट पॉइंट हियर अनुपसर्जनस्य इति इह उत्तरार्थम् अनुवृत्तमपि न पत्युः विशेषणम् अपि तु तदन्तस्य विल् कण्टिन्यू विद् द व्याख्यान देयर् ननु दृढः पतिः यस्याः इति बहुव्रीहौ दृढपतिः दृढपत्नी इति नत्वविकल्पः इष्यते सो देयर् इस् अ बहुव्रीहि समासः हियर् वि सॉ एन् एक्साम्पल् आफ् तत्पुरुष गृहस्य पतिः इति इदानीं बहुव्रीहि समासे दृढः पतिः यस्याः इति बहुव्रीहौ दृढपतिः दृढपत्नी इति नत्वविकल्पः इष्यते वी वाण्ट् नत्वविकल्प न तु सम्भवति बट् इट् विल् नाट् हेपन् वै अनुपसर्जनात् इत्यधिकार वि आर् अण्डर् द अधिकार अनुपसर्जनात् यु स्टार्टेड् बिफोर् टिट्ठाणि एण्ड् गोस् आन् थ्रू द एण्टैर् त्री प्रत्ययप्रकरण सो इट् इस् अनुपसर्जनादेव भवति पतिशब्दस्य अत्र उपसर्जनत्वात् एण्ड् द वर्ड् पति हियर् इस् उपसर्जन इन् दृढः पतिः यस्याः in a bahuvrihi samasa the avayavas are always upasarjana so the word pati is upasarjana anupasarjana iti adhikare asti ityatah tatra bahuvrihau natva vikalpah na siddhyati iti ashanka atah aha nasa anupasarjana iti na atra sambadhyate iti vachyam we cannot say that the anupasarjana adhikara is not present here right uttaratra anuvrittaye इहापि तदनुवृत्तेः आवश्यकत्वात् सो द अनुपसर्जनाधिकार गोस् थ्रू द एण्टैर् प्रकरण इन् द लाटर् सूत्रस् आल्सो इन् मेनि केसस् वि रिक्वैर् द अनुपसर्जनाधिकार सो इट् शुड् बि प्रसेण्ट् हियर् आल्सो यतः अनुपसर्जनस्य इत्यादि अनुपसर्जनस्य इति इह उत्तरार्थम् अनुवृत्तम् सो यस् अनुवृत्ति इस् देर् बिकास् वि रिक्वैर् इट् इन् द लाटर् सूत्रस् किन्तु न पत्युः विशेषणम् अपि तु तदन्तस्य बट् इट् इस् असोसियेटेड् नाट् वित् पति दट् इस् इट् डस् नाट् मीन् दट् द वर्ड् पति शुड् बि अनुपसर्जना अपि तु तदन्तस्य द सपूर्व पति because he, again he says, sapurvasya iti patyantasya shrutatve. So the word being here, heard here is sapurvasya patyuhu. So the word pati along with that purvapada, that is the samasa itself, pati shabdanta should be anupasarjana. Now if say grihapati is in samasa with something else, tadatu nakaradeshaha nabhavati. Idanimtu yatra pati shabdasya upasarjanatvam astu nava. Tadantasya anupasarjanatve nakaradeshaha bhavatyeva. Anupasarjanasya iti iha uttarartham anuprattamapi na patyuhu visheshanam apitu tadantasya. Tena bahuvrihavati natvam bhavati ityarthah. Drihapatni drihapatihi iti vikalpah. Evameva vrishalapatni vrishalapatihi. So vrishala is a word which is referred to sudra. I mean, there are words, there are some technical specification of who is a vrishala. Who is born to a Brahmin from a Shudra or something. There is some such technical definition. So, Vrishalasya Patni. So, he is giving this example to show that there is no Yajna Sanyoga. Because a Vrishala does not have Yajna Adhikara, there is no Yajna Sanyoga. Yajna Sanyoga Bhavepi Atra Idam Sutram Pravartate Iti Darshayitum Vrishala Patni Vrishala Patihi. Atha, Vrishalasya Patni Iti Vyaste Katham. Now comes the question, the word patni is used even in cases where there is no yajna sanyoga. Say for example, as in vyaste, in the vigraha vakya, vrishalasya patni iti vyasta prayoge, vyaste iti vyathayanam pashyamaha. Vigrahamakya ityartha. So, previously himself, the Vyakhyanakara has said, Vrishalapatni iti vigraheva, apashudradhikarane shudranam yajnadhikara nirakarana. So, there is no yajnadhikara, which means there is no yajna sanyoga. Tarhi asmin katham vrishalasya patni iti prayogaha. How do you get here? Vigrahamakya ityartha tadashya. Sapurvatvabhavat na prakrita sutrena natra vikalpaha. If it is a samasa, vibhasha sapurvasya ityanena nakaraha vikalpyate. Kintu samasaha nasti vrishalasya patni iti vyastaha prayogaha iti karanena. Sapurvatvabhavat na prakrita sutrena natra vikalpaha. Yajna sanyoga bhavat na purva sutrena. Yajna sanyoga nasti iti karanena. Patyurno iti sutrena api natvam na prapyate. Katham vrishalasya patni iti prayogaha. Prayogastu asti ishyate. Katham iti chete. Patni iva patni iti upachara. So, the Bhashyakara himself treats this question and says patni iva patni. So, it is only the dharma. Patni veti is the pratika. This should be in green. Sorry, it is a vyakhyana. Patni iva iti. Yajna sanyuktayam vidhabharyayam yaha patni shabdaha yutpaditaha. So if it is a bharya, like in Vasishthasya patni, there is yajna sanyoga and we derive the word patni. Yajna sanyuktayam vidhabharyayam yaha patni shabdaha yutpaditaha tasyaiva shudrastriyam api ayajna sanyuktayam Panigrahanadi dharma puraskarena gaunya vritya prayogaha. There is gauna prayog. That is all properties of a patni, which is there for a dvija patni, where there is yajna sanyoga. Such as panigrahana, he mentions that. So she is also wedded in the same way and she stays with her husband and all that. Whatever are the dharmas of a patni, of a bharya in case of a dvija will also apply here. Except that there is no yajna sanyoga. So, gaunya vritya prayodaha, patni iva patni, sayatha sasyaha acharanam bhavati, tathaiva asyaha api, yajna sanyuktayam vijabharyayam yaha patni shabdaha vyutpaditaha, tasyaiva. So, the same word patni, shudrastriyam api ayajna sanyuktayam panigrahanadi dharma puraskarena, gaunya vritya prayodaha, yatha gangayam hi trilingasya tire prayodaha. The word Gangayam is used to indicate Ganga Tira. Now, Tira is not Strilinga.
तथापि स्त्रीलिङ्गस्य गङ्गा इति शब्दस्य प्रयोगः भवति. कथं? गौण्याकृत्य. इवन् दो द वर्ड् गङ्गा यूजुवलि मीन्स् द रिवर् प्रवाह, इट् ईस् यूस्ड् इन् केस् आफ् तीरा. सिमिलर्लि पत्नी, इवन् दो इट् टेक्निकलि शुड् बि यूस्ड् ओन्लि इन् केस् आफ् यज्ञसंयोग, इट् इस् यूस्ड् नार्मलि. भार्या इत्यर्थे एव पत्नी शब्दस्यापि प्रयोगः अस्ति. एकं समाधानं दत्तं वीक्ष्य तर्हि द्वितीयं समाधानं प्रयच्छति. यद्वा आचारक्विबन्तात् कर्तरि क्विप्, पत्नी इव आचरति इत्यर्थे आचारक्विप्. क्विप् सर्वप्रातिपदिकेभ्यः क्विप् भवति. आल् प्रातिपदिक केन् बि कन्वर्टेड् टु धातुस् बै द एडिशन् आफ् क्विप् क्विप्. दिस् क्विप्, द फस्ट् क्विप् बिलाङ्ग्स् टु द सनादि, सनाद्यन्ता धातवः इत्यस्ति, तेषु अन्तर्भवति. तेन कारणेन क्विप् भवति, पत्नी इव आचरति इत्यर्थे क्विप् प्रत्ययः भवति. क्विप् सर्वापहारी लोप पत्नी. नौ आन् दट् क्विबन्त, नौ इट् इस् अ धातु, सनाद्यन्ता धातवः इत्यनेन धातुत्वमस्ति. तस्मात् कर्तरि क्विप्, अगेन् कर्तरि क्विप् इस् अ जनरल् क्विप् विच् इस् अलर्ट् टु आल् धातु इन् द सेन्स् आफ़् कर्ता. फार् एक्साम्पल् लेढि इति लिह, दोग्धि इति दुह्, सीन् मेनि सच् वर्ड्स् इन् हलन्तास् एण्ड् नामपदप्रकरण. सो आचारक्विबन्तात् कर्तरि क्विप् रिफर्स् एड् आचारक्विबन्त. पत्नी इव आचरति, शी हू आक्ट्स् लैक् पत्नी, दट् इस् दट् इस् ओरिजिनल् पत्नी हू हास् यज्ञसंयोग. सा इव आचरति इत्यर्थे आदौ आचारार्थे क्विप् प्रत्ययः क्रियते, तेन इदानीं धातुः निष्पन्नः. तस्मात् धातोः कर्तरि क्विप् प्रत्ययः पुनः क्रियते. द प्रकृति डस् नाट् अण्डर्गो एनि चेञ्ज् बिकास् पत्नी रिमेन्स् एस् इट् इस् बिकास् क्विप् इस् सर्वापहारि लोप. आल् पार्ट्स् आफ् प्रत्यय आर् डिलीटेड् एण्ड् द प्रातिपदिक रिमेन्स् एस् इट् इस्. बट् नौ इट् इस् अगेन् यू हाव् द वर्ड् पत्नी विच् इस् अ प्रातिपदिक. This can be used for anybody because the meaning here is not directly against Sanyoga. It is Patni Iva Asarati, she who behaves like Patni. Ityarthe Kartum Shakyate Iti Dikshitana Matam. Yadva Achara Kvibantat Kartari Kvipuram. Asminishta Pakshe. So in this case, Patniyo Patniyaha Iti Yang Vishaye Visheshaha. But the form for the original Patni Shabda, पत्नी पत्न्यौ पत्न्यः इति नदीशब्दवद् रूपाणि भवन्ति. यदा तु आचारक्विबन्तात् कर्तरि क्विप् क्रियते, इफ् यु आर् डूयिङ्ग् आचारक्विप् एण्ड् देन् कर्तरि क्विप्, नौ इट् इस् अ धातु, इट् गाट् कन्वर्टेड् टु अ धातु अण्ड् बेक् टु प्रातिपदिक. बिकास् आफ् दट् धातुत्व अचिष्णु धातु भवान् योर् यङ् इत्यनेन इयङ् आदेशः भवति. सो द्वितीय पत्नी इति तु समानं प्रथमैकवचने, द्विवचनादिषु पत्न्यौ पत्न्यः इति इयं विषये विशेषः. सो द फार्म् विल् बि डिफरेण्ट् इन् केस् आफ् द्विवचन बहुवचन एण्ड् सो आन्. वेरेवर् दर् इस् अजादि प्रत्यय अचि, सो अजादौ प्रत्यये परे इयं भवति इति विशेषः इति दीक्षितैः समाधानद्वयं दत्तम्. एकं पत्नीव पत्नी इति गौणप्रयोगः इति एकं समाधानम्, आचारक्विबन्तात् कर्तरि क्विप् इति अपरं समाधानम्. द व्याख्याकार डस् नाट् एक्सेप्ट् द सेकेण्ड् वन्. सो यद्वा इति व्याख्यानं पश्यामश्चेत् प्रौढिवादमात्रमिदम्. प्रौढिवाद इस् अ वर्ड् वित् दीक्षितर् हिम्सेल्फ् यूसस् फार् द भाष्यकार. प्रौढिवाद इस् वाद, इट् इस् डूयिङ्ग् सम् आर्ग्युमेण्ट् जस्ट् थिङ्किङ्ग् दट् वन् नोस् इट्. प्रौढः इति धिया यः वादः क्रियते, thinking that I know something better, iti dhiya. So that which does not hold ityarthe praudhivadaha iti prayogaha. Praudhivada matramidam. So it is used as a tiraskara, the Ninda saying, Ishadar is just showing off his expertise, but this is not correct. Sriyam, achara svibanta prakritika svibanta shabdaha na santi, iti anupasarjanad ityatra uttatva. So Vyakhyakara has already proved it, and Nagesha Bhatta also does not reject this. Kriyam, acharak vibantat kartari kvip, kriyam nasti, ityeva siddhantaha. Kriyam, acharak vibantat pratpatika vibantashabdaha nasanti, iti siddhantaha. अतएव प्रथमं समाधानमेव युक्तं न तु द्वितीयं समाधानम् इति बालमनोरमाकारः अभिप्रैति दीक्षितमते तु उभयं सम्भवति। तपूर्वस्य किम् यत्र पूर्वपदमस्ति तत्रैव इत्यर्थः। गवां पतिः स्त्री इत्युक्ते सो गवां पतिः इति विग्रहवाक्यं। तपूर्वस्य इति किं प्रश्नस्य कः आशयः। प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्व अव्यभिचारात् सपूर्वस्य इति किमर्थम् इति प्रश्नः। पतिशब्दान्तस्य इत्यनेनैव सिद्धं भवति बिकास् यू आल्रेडी हाव् द वर्ड् पति प्रातिपदिकम् इत्यस्य विशेषणं तदन्तविधिना पतिशब्दान्तस्य इत्येव दत्तं। पतिशब्दान्तः नाम सर्वदा किमपि पूर्वपदं भवत्येव। वेन् यु आर् सेयिङ्ग् द वर्ड् पतिशब्दान्त एण्डिङ्ग् इन् द वर्ड् पति इट् इस् आब्वियस् दट् देर् इस् सम् पूर्वपद। पुनः सपूर्वस्य इति किमर्थं वक्तव्यम् इति प्रश्नः। प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्व अव्यभिचारात् द वर्ड् विच् इस् एण्डिङ्ग् इन् पति शुड् आल्वेस् हाव् सम् पूर्वपद। सपूर्वत्व अव्यभिचारात् सपूर्वस्य इति किमर्थम् इति प्रश्नः। उदाहरणं दत्तं गवां पतिः स्त्री ओनर् आफ् हौस् स्त्री इति द्योतयितुं तत्परं गवां पतिः स्त्री इति स्वामिनी रक्षित्री वा इत्यर्थः। असमस्तत्वात् गवाम् इत्यस्य न पूर्वावयवत्वं सपूर्वस्य इत्यस्य पूर्व अवयव नाट् जस्ट् हेविङ्ग् सम्थिङ्ग् बिफोर् इट्। अत्रापि गवां पतिः पतिः इत्यस्मात् पूर्वत्र गवाम् इति पदमस्ति किन्तु पूर्वावयवः नास्ति। इट् इस् नाट् द पूर्व अवयव आफ् द वर्ल्ड्। So there is something he says, but finally the Siddhanta looks at it. Patishabdasyaiva vyapadeshivatvena tadantataya natva vikalpa praptau sannivrityartham sapurvasyeti vatanam iti bhavaha. That is the last thing that is relevant. I mean, the previous thing is also, but the final conclusion is that why sapurvasya is patishabdasyaiva vyapadeshivatvena tadantataya vyapadeshivad ekasmin. The pati itself can be treated as patishabdanta. Just like if there is only a, it can be treated as akaranta. So, adyantavad ekasmin. So, if there is only one thing, it can be treated as anta and adi. If there is only a, you can treat it as akaranta and akaradi. Similarly, if there is just the word pati, the plain word, that also can be treated as patishabdanta by vyapadeshivadbhava. पतिशब्दस्यैव व्यपदेशिवत्वेन तदन्ततया नत्वविकल्प प्राप्तु। सो इफ् यु डू दट् इवन् इफ् इट् इस् प्लेन् पति देर् वुड् बि नत्वविकल्प। सो टु प्रिवेण्ट् दट् तन्निवृत्त्यर्थं सपूर्वस्य इति वचनम् इति भावः। सो टु प्रिवेण्ट् दट् एण्ड् टु स्पेसिफै दट् देर् शुड् बि पूर्वपद हि सेस् सपूर्वस्य इति पदम् इष्यते। वस्तुतस्तु बट् आक्चुलि व्यपदेशिवद्भावः अप्रातिपदिकेन इति निषेधात् there is a rule, again another paribhasha which says vyapadeshivadbhavah apratipadikena. Vyapadeshivadbhavah will not apply in case of a pratipadika. So a pati cannot be treated as patishabdanta by vyapadeshivadbhavah. Vastutastu vyapadeshivadbhavah apratipadikena iti nishedhat iha kevala patishabdasya patishabdantatva bhavadeva vatva vikalpa nivritti siddhehe sapurvasya iti spashtartham. So wherever they say spashtartham, they mean it is not required, just there for greater clarity. Na avashyakam ityeva arthah vyakhyanat spuru. So just see one more sutra in the same, related to the same thing. Nityam sapatnyadishu. Patirno yagyasanyoge vibhasha sapurvasya nityam sapatnyadishu. So there are some नित्यं सपत्न्यादिषु इति पदद्वयं पत्युर्नो यज्ञसंयोगे इत्यतः पत्युः नः इति अनुवर्तते। पूर्वविकल्पापवादः समस्तपद वेर् देर् इस् कम्पल्सरि नत्व। सो फ्रम् द प्रीवियस् सूत्र विभाषा सपूर्वस्य इत्यनेन विकल्पेन नत्वे प्राप्ते अनेन सूत्रेण नित्यं नत्वं विधीयते। पूर्व विकल्प।
सो पूर्व विकल्पे विभाषासपूर्वस्य इति विकल्पस्य अपवादः इत्यर्थः। आरंभ सामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम्। एंड बिकॉज इज स्टार्टिंग अ न्यू सूत्र सेइंग सपत्न्यादिषु, इट्स ऑब्वियसली मीन्स दैट इट विल बी कंपलसरी नत्व व्हेन इट वुड हैव ऑलरेडी गॉट अ ऑप्शनल नत्व फ्रॉम द प्रीवियस सूत्र। सेइंग इट अगेन मीन्स देयर विल बी कंपलसरी नत्व। सो द वर्ड नित्य इज जस्ट फॉर स्पष्टार्थ, नित्य ग्रहणं स्पष्टार्थम्। ननु समानः पतिः यस्याः सा सपत्नी इत्यर्थः।
सो देयर इज सम डिस्कशन अबाउट द वर्ड सपत्नी।
समानः पतिः यस्याः सपत्नी, सपत्नी रेफर्स टू द को वाइफ।
देयर आर मेनी वाइफ्स फॉर अ मैन, सो दे आर कॉल्ड सपत्नीज ऑफ ईच अदर।
समानः पतिः यस्याः, ही शी हू हैज द सेम हस्बैंड, सपत्नी। नाउ समान इट शुड हैव बीन समान पत्नी, समानः पतिः यस्याः, समान पत्नी। हाउ डज इट बिकम स, चेत् समानस्य स्वभावः अपि निपात्यते बै निपातन, बिकॉज ही सेइंग सपत्नी द समान इज रिप्लेस्ड बै स। समानस्य स्वभावोपि निपात्यते। सो दट इज वॉट इज गिवन इन द प्रक्रिया इन द व्याख्यान। समानः पतिः यस्याः सा सपत्नी। सो ननु समानः पतिः यस्याः सा सपत्नी इति वक्ष्यति, तत्र समानशब्दस्य स्वभावः अनुपपन्नः। सो एक्चुअली द स आदेश इज गिवन ओनली फॉर द वर्ड सह, तेन सह इति यः सह शब्दः तस्यैव सदृशपर्यायेण सहशब्देनैव बहुव्रीहिः आश्रयणीयः। सो दट् वर्ड् सः एवं च ओपसर्जनस्य इति वैकल्पिकः स्वभावः। सो इफ् यू टेक् द वर्ड् द इन्द्रविग्रह एस् सः, देन् देर् विल् बी ओन्ली एन् आप्शनल् स्वभाव एण्ड् नाट् अ कम्पल्सरी स्वभाव। देर् फोर् हि सेस् समानस्य स्वभावः अपि निपात्यते वै निपातन, इट् इस् कम्पल्सरी स आदेश फार् समान। And the word is sapatni. Samanak patihi isyaha sa sapatni. Similarly, ekapatni, veerapatni. So there are words, samana, eka, veera, bhratru, putra. So these are the words in the sapatni adhigana. So in all these cases, there is compulsory natva. समानपत्नी, एकपत्नी, वीरपत्नी, भ्रातृपत्नी, पुत्रपत्नी इत्यादयः।
सो दट् इज वन स्मॉल सब प्रकरण। नेक्स्ट इज पुतक्रतो रैच, विच वी विल सी इन द नेक्स्ट क्लास, विच इज ऑन नेक्स्ट मंडे। इन क्वेश्चन, यस रविचंद्र जी, यू हैड अ क्वेश्चन। There is no difference between grihasya patihi and gavampatihi. There is a difference between grihapatihi and gavampatihi. Grihapatihi is one word, or it is the entire thing is a pratipadika by kritadhika samasashtra. Of that pratipadika, griha is the purvavayava and pati is the paravayava. When it is a vyasta prayoga, whether it is grihasya patihi or whatever, gavam patihi, wherever there is vyasta prayoga, there are two separate words and it is not an avayava. Vigraha vakya avayavatvam nasti itteva. So that is what the Balamanoramakara also says. There are two separate padas. Together they do not have the pratipadika samya. So when in a samasa, even though they are two separate words, I mean, even in a samasa, we treat griha as one word and pati as another word, but still, together, tasya pada samudaya seva pratipadika samya asti krittadhir samasa ashtayati sutrena. So, tasya pratipadikasya purvavayavaha griha shabdaha ityarthaha. So, only in a samasa, the word griha will be an avayava, purvavayava. If it is a vyasta prayoga, grihasya patihi iti, tatra na bhavati ityarthaha. Atayeva, गृहस्य पत्नी इति प्रयोगः न भवति। इवन् दो इट् इस् अ स्त्री द मास्टर् आफ् द हौस्, गृहस्य पतिः इत्येव वक्तव्यं भवति व्यस्त प्रयोगे गृहस्य पतिः स्त्री इति द्योतयितुम् यदा तु समासः भवति तदा गृहपतिः इत्यपि भवति गृहपत्नी इत्यपि भवति any other questions एनाक्षर समाम नायम अधिगम महेश्वरात् कृष्णम व्याकरणम दृष्टं तस्मै पाणिनये नमः मुनित्रयं नमस्कृत्य तदस्ति परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते।